श्रीमद्भगवद्गीता तदसप्तमोऽध्यायः श्रीभगवानुवाच मय्यासत्तमनःपार्थ योगं युञ्जन्मदाश्रयः असंशयं समग्रम् यथा ज्ञास्यसि तच्छृणु ज्ञानं तेऽहं सविज्ञान मिदं वक्ष्याम्यशेषतः यज्ञात्वानेहभूयोऽन्या ज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यतभिषिद्धये यदनामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः भूमिरापो नलो वायुः खं मनो बुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा अपरेयमितस्त्वन्याम् प्रकृतिं वृद्धि मे पराम् जीवभूतां महाबाहो ययेदन्धार्यते जगत् एतद्योनीति भूतानि सर्वाणीत्युपधारय अहं कृष्णस्य जगतः प्रभवप्रलयस्तथा मत्तः परतरं नान्यात् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतम् श्रोत्रे मणगण इव रसोऽहमप्सु कौन्तेय प्रवास्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दः के पौरुषं नृषु पुण्यो गन्धपृथिव्यां च तेजश्चास्मि विभावसो जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजं मां सर्वभूतानां वेद्धि पार्थसनातनम् बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् बलं बलवतां चाहम् कामरागविवर्जितम् धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ये चैव सात्त्विका भावा राजसास्तामसास्ये मत्त एवेति तान् विद्धि न त्वहं ते सुते मयि त्रिभिर्गुणमयैर्भावै रेभिः सर्वमिदं जगत् मोहितं नाभिजानाति मामेव्यः परमव्ययम् दैवी येषा गुणमयि मम मायादुरत्यय मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः मायया परितज्ञाना आसुरं भावमाश्रिताः चतुर्विधा भजन्ते माम् जना सुकृतिनोऽर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी स भरतर्षभ तेषां ज्ञानी नित्ययुक्ता एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थ महं स च मम प्रियः उदारा सर्व एवैते ज्ञानी त्वात्मैव मे मतम् आस्तितः स हि युक्तात्मा मामेवानुत्तमां गतिम् बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः कामैस्तैस्तैर्हृतज्ञान प्रपद्यन्ते न्यदेवताः तं नियममास्थाय प्रकृत्या नियता स्वया यो यो यां यां तनुं भक्ता सद्दयार्चितुमिच्छति तस्य तस्याचरां श्रद्धाम् तामेव विददाम्यहम् सदया श्रद्धया युक्ता तस्याराधनमीहते लभते च ततः कामान् ममैव विहितान् हितान् अन्तवन्तु फलम् तेषाम् तद्भवत्यल्पमेधसाम् देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि अव्यक्तम् व्यक्तिमापन्नम् मन्यन्ते मामबुद्धयः परम भावमजानन्तो ममाव्ययमनुत्तमम् नासं प्रकाशः सर्वस्य नाहं प्रकाशः सर्वस्य योगमायासमावृतः मूढोऽयं नाभिजानाति लोको मामजमव्ययम् वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहम् सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्मतद्विदुः कृष्ण मध्यात्मं कर्म साखिलम् सादिभूतादिदैवं मां सादियज्ञं च ये विदुः प्रयाणकालेऽपि च मां ते विदुर्यक्तचेतसः ॐ श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमः ॐ अथाष्टमोऽध्यायः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मम् किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्त मदिदैवं किमुच्यते अधियज्ञकदं कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कदं ज्ञेयोऽसि नियतात्मभिः श्रीभगवानुवाच अक्षरं ब्रह्म परमम् स्वभावोद्यात्ममुच्यते भूतभावोद्भवकरो विसर्गः कर्मसङ्गितः अधिभूतं क्षरो भाव पुरुषश्चादिदैवतम् अधियज्ञोऽहमेवात्र Dehe deha vritambara. Antakale samameva. Smaran mukta kalevaram. Yaprayati samadbhavam. Yadinatyatra samsayaha. Yam yam vapismaran bhavam. Tyajantyante kalevaram. Tam tamevaiti konteya. Sada tadbhava vavitaha. Tasmat sarvesu kalesu. Mamanusmara yudhyaja. Mayarpita mano buddhir. Mame vaisyasya samsayam. Avyasa yoga yuktena. Chetasa nanyagamina. Paramam purusam divyam. Yati partha nichintayan. Kavim purana manusasitara. Manoraniyam samanusmaredyaha. Sarvasya dhatarama chintya rupa. Maditya varnam tamasah parastat. Prayanakale manasasalena. Bhaktya yukto yoga balena caiva. Bravor madhye pranama vaishya samyak. Satam param purusamu paiti divyam. Yadaksharam veda vido badanti. Visandhi adhyatayo vitaragaha. Yadichanto brahmacharyam saranti. Tatte padam sangrahena prabhakshe. Sarvadvarani samyamya. Manoridu niruddhyaca. Murdhnyadhayatmana prana. Mastito yoga dharana. Omitye kaksharam brahma. Vyaharan ma manusmaran. Yaprayatitya jandeyam. Sayati paramam gatim. Ananya cheta satatam. Yo mam smarati nityasah. Tasyaham sulabhah partha. Nitya yuktasya yoginah. Mamupetya punarjanma. Dukkalayam asasvatam. Napnuvanti mahatmana. Samsiddhim paramam gatah. Abrahma bhuvanalloka. Punaravartinorjuna. Mamupetya dukonteya. Punarjanmana vidyate. सहस्रयुग पर्यंत महर्यद् ब्रह्मणो विदुः रात्रिं युग सहस्रांताम् तेहो रात्र विदो जनाः अव्यक्ता व्यक्तयः सर्व प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके भूतग्रामः स एवायम् भूत्वा प्रलीयते रात्र्यागमे वसः पार्थ प्रभवत्यहरागमे परस्तस्मात्तु भावोऽन्यो व्यक्तो व्यक्तान् सनातनः यस्य सर्वेषु भूतेषु नश्यस्सु न विनश्यते अव्यक्तो चर इत्यक्तः तमाहुः परमां गतिम् यम् प्राप्य न निवर्तन्ते तद्धाम परमं मम पुरुषस्य परः पार्थ भक्त्या लभ्यस्त्वनन्यया यस्यान्तस्तानि भूतानि येन सर्वमिदं ततम् यत्र काले त्वनावृत्ति मा वृत्तिं सैव योगिनः प्रयाता यान्तिदं कालम् वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शुक्ल सन्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः धूमो रात्रिस्तदा कृष्ण सन्मासादक्षिणायनम् तत्र चान्द्रसमं ज्योतिर् योगी प्राप्य निवर्तते शुक्लकृष्णे गतिष्येते जगदः शाश्वते मते एकयान्त्वनावृत्ते मन्यया वर्तते पुनः नैते श्रुति पार्थ जानन् योगी मुष्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलम् प्रदिष्टम् अत्येति तत्सर्वमिदम् विदित्वा योगी परम् स्थानमुपैति साध्यम् ॐ श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुन संवादे अक्षर ब्रह्म योगो नामाष्टमः ओम।